अस्तु तर्हि एतावत् पर्यन्तम् अस्माभिः उद्देशविभागे सर्वम् अवलोक्य अद्य लक्षणग्रन्थे अस्माकं प्रवेशः भविष्यति. तत्र लक्षणग्रन्थे पदार्थानां लक्षणवाक्यानि सन्ति, अपि च तेषां निरूपणं द्रव्यनिरूपणात् आरभ्य अग्रे सरति लक्षणग्रन्थः. तर्हि सप्तत्रिंशत्तमे पुटे बालसुब्रह्मण्यमहोदय पश्यति वा, द्रव्यनिरूपणम् इति विषयः अस्ति. पेज् 37 इति
द्रव्यनिरूपणम्
अस्तु, तस्मात् आरभ्य अद्य पठेम. किञ्चित् पठति वा?
उद्देशग्रन्थ अनुसारेण आदौ पृथिवीं निरूपयति. तत्र ग्रन्थवती पृथिवी स्वा द्विविधा नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा. पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरम् अस्मात् आदीनाम्, इन्द्रियं ग्रन्थग्राहकं, ग्राणं नासाग्रवर्ति, विषयो हृत्पाषणादिः इति.
तर्हि एतदस्ति पृथिवी इत्यस्य लक्षणवाक्यं, मूलग्रन्थात् उद्धृतं वाक्यम् अस्ति. मूलग्रन्थे यथा अस्ति तथैव गन्धवती पृथिवी इति उच्यते तर्कसङ्ग्रहे. पृथिवी इति कीदृशं द्रव्यम् इत्युक्ते यस्मिन् गन्धः अस्ति, गन्धवती पृथिवी. पुनः तत्र पश्यामः यत् तदपि द्विविधा अस्ति, नित्या नित्यञ्च इति द्विविधा अस्ति. पुनः नित्या परमाणुरूपा, अनित्या कार्यरूपा, एतत् किमिति अग्रे गत्वा परिशीलयिष्यामः. पुनस्त्रिविधा इति उक्तं शरीरेन्द्रियविषयभेदात् इति. अत्र किञ्चित् वक्तव्यमस्ति यद् महोदयेन तेषु दिनेषु उक्तमासीत्. शरीरम् इत्युक्ते किं? प्रत्येकं द्रव्यस्य शरीरं भवति. शरीरम् इत्युक्ते अस्मदादीनां शरीरं, नाम मनुष्याणाम् अपि च पशूनां सस्यानां शरीरम् इति पार्थिवशरीराणि. यतोहि 50% यावत् अस्माकं शरीरे पार्थिव पृथ्वी अंशः अस्ति इति कृत्वा शरीरं पृथ्वीजन्यम् अस्मदादीनाम्. अपि च अत्र उच्यते यत् शरीरम् आत्मनः भोगायतनं शरीरम् इति. आयतनम् इत्युक्ते आश्रयः, आत्मनः आश्रयः शरीरम्. आत्मा सुखदुःखादीनां भोगार्थं यस्मिन् आश्रितः भवति तादृशमस्ति शरीरम्. तत्र इतोपि एकं वाक्यं महोदयेन उक्तमासीत्, हिताहितप्राप्तिपरिहारानुकूलक्रिया शरीरे भवति इति. नाम आत्मा भोगस्य अनुभवार्थं शरीरम् आश्रित्य तिष्ठति, तत्र च आत्मनः हितस्य प्राप्त्यै अपि च अहितस्य परिहारार्थम् अनुकूलक्रिया भवति शरीरे इति उक्तमस्ति. तादृशं पार्थिवशरीरमस्ति अस्मदादीनाम्. अस्मदादीनाम् इत्युक्ते तत्र मनुष्याणां, पशूनां, सस्यानां सर्वेषां शरीरम् अस्ति. अस्तु, तर्हि पुनः त्रिविधा इति उक्त्वा शरीरम्, इन्द्रियम् अपि च विषयः इति भेदः प्रदर्शितः. इन्द्रियम् इति तु जानीमः, इन्द्रियं विषयग्राहकम् अस्ति, पार्थिवविषयग्राहकम् अथवा पार्थिवविषयज्ञानजनकम् इन्द्रियं पार्थिव इन्द्रियम्. अत्र पार्थिवद्रव्ये विद्यमानस्य गुणस्य ज्ञानं जनयति घ्राणम् इति इन्द्रियं नासाग्रवर्ति इति पार्थिव इन्द्रियम्. विषयः मृत्पाषाणादिः. विषयः इत्युक्ते शरीरं विहाय, इन्द्रियं विहाय अन्यत् किमपि पार्थिववस्तु भवति चेत् तदस्ति विषयः. मृत्पाषाणादिः नाम उपभोगसाधनं. तत्र शरीरं तु आत्मनः भोगायतनं शरीरम् इति उक्तमस्ति. तत्र भोगार्थं शरीरस्य उपभोग आत्मनः उपभोगार्थं यानि यानि वस्तूनि भवन्ति पार्थिववस्तूनि तानि सर्वाणि पार्थिवविषयाः इति उच्यन्ते मृत्पाषाणादिः इति. अत्र कस्यचित् किमपि चिन्तनम् अथवा प्रश्नः अस्ति वा?
पृथिवी कार्यरूपा इति महोदय.
हा हा, अनित्या कार्यरूपा. कार्यम् इत्युक्ते यद् जायते, यस्य जननं भवति, नाम घटपटादीनां, खलु? घटः नित्यं नास्ति, घटः पार्थिवद्रव्यं, किन्तु कार्यरूपेण जायते घटः, तस्य जननं भवति इति कृत्वा कार्यरूपा. अनित्या च, अनित्या इत्युक्ते तस्य नाशः अपि भवति. नित्या परमाणुरूप, पार्थिवपरमाणवः ये भवन्ति ते नित्याः इति. अस्तु, इति एतावत् वक्तव्यम् आसीत् अस्मिन् विभागे. नूतनतया केन केन आगतं, नामानि उच्यन्तम्?
जयन्ती अस्मि भगिनी, नमस्ते.
नमस्कारः जयन्ती भगिनी. अनन्तरं
नमस्कारः भगिनी अजितः.
अस्तु, वर्धिनी भगिनी, अजितमहोदय. अनन्तरम् अन्य कोऽपि अस्ति वा? दशजनाः दृश्यन्ते. अस्तु, भवतु नाम. अस्तु, तर्हि एतावत्पर्यन्तं केवलं लक्षणवाक्यं पठितवन्तः. ततः अग्रे गत्वा लक्षणवाक्ये लक्ष्यं किं, लक्षणं किम् इत्यस्य चर्चा भविष्यति. बालसुब्रह्मण्यमहोदय, भवानेव अग्रिमपरिच्छेदं पठतु एकवारम्.
गन्धः लक्षभूतायाः पृथिव्याः लक्षणम् इति उक्तम्. तत्र आदौ किं लक्ष्यम् इति निरूप्यते. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः. यः लक्ष्यसमानजातीयाः यमन्तः तेषु सर्वत्र स्यात्. एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणमिति उच्यते. यथा केनचित् गौः ज्ञातव्या अस्ति सा तर्हि जाता लक्ष्यम्. तस्याम् अस्ति शास्त्र अपदार्थः. सः गोजातीयेषु गोत्वाश्रयेषु यावत् अवश्यं भवति. गोविजातीयेषु गोत्व अभावाश्रयेषु अश्वं महिष्यादिषु न एव अस्ति. तादृशं च शास्त्रपदार्थं दृष्ट्वा तद्वति या सा गौः इति वेत्ति.
तर्हि सारांशत्वेन वक्तुमिच्छति वा महोदय, लक्ष्यम् इत्युक्ते किं, लक्षणम् इत्युक्ते?
पृथिवी स्वीकरोति चेत् पृथिवी गन्धवत् पृथिवी इति गन्धवती पृथिवी इत्येन उक्तं. गन्धः पृथिव्याः लक्षणं. सो गन्धवती गन्धः पृथिव्याः लक्षणं निरूपयति.
हा, सत्यं. तर्हि अत्र लक्ष्यं च लक्षणं पारिभाषिकशब्दौ द्वौ अपि न्यायशास्त्रे. लक्ष्यम् इत्युक्ते किं, भवतः उदाहरणमासीत् गन्धवती पृथ्वी, अथवा अस्माकं प्रसङ्गः अधुना गन्धवती पृथ्वी इति, तत्र लक्ष्यं किम्?
ज्ञातुमिष्टः, जिज्ञासितः ज्ञातुमिष्टः, अपि च ग्रन्थे शास्त्रे व्यवह्रियते लक्ष्यं.
नाम अधुना वयं
शास्त्रे उक्तः.
हा, सत्यं. नाम अस्माकं प्रसङ्गः अत्र अस्ति पृथिवी निरूपणम् इति. पृथिव्याः लक्षणं ज्ञातुम् इच्छामः इति कृत्वा पृथ्वी इति जिज्ञासितः पदार्थः तदेव लक्ष्यम् इति शास्त्रे तस्य पारिभाषिकशब्दः अस्ति. जिज्ञासितः पदार्थः इति लक्ष्यमस्ति. अस्तु, अधुना लक्षणम् इत्युक्ते
लक्षणम् इति पदार्थस्य प्रति विवरणम् इति
वस्तुतः लक्षणं किम् इति अग्रे गत्वा इतोपि गभीरचर्चा भवति. अत्र हा अत्र सरलरीत्या उक्तमस्ति लक्ष्ये अथवा पृथिव्याम्. अत्र तु पृथिवी इति लक्ष्यम् अस्तु. तर्हि लक्ष्ये विद्यमानः कश्चन विशिष्टः गुणः अथवा स्वभावः यः लक्ष्यसमानजातीयाः यावन्तः तेषु भवति. इत्युक्ते लक्ष्यसमानाः इत्युक्ते यस्मिन् 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 कस्मिन्नपि पृथ्वीत्वं तस्मिन् भवति, लक्ष्यविजातीयेषु न भवति. नाम यत्किमपि पृथ्वी नास्ति द्रव्यं तस्मिन् न भवति. तादृशविशिष्टगुणः लक्षणम् इति उच्यते. अस्तु, इमौ द्वौ पारिभाषिकशब्दौ न्यायशास्त्रे, लक्ष्यं च लक्षणम् इति. अत्र इतोपि एकम् उदाहरणं दत्तमस्ति. गोजातीयेषु नाम गोजातीयेषु इत्युक्ते गोत्वं यत्र यत्र अस्ति अथवा गोत्वाश्रयेषु एकः विशिष्टः गुणः अस्ति, सः एव अथवा लक्षणं लक्षणं हा अथवा धर्मः. धर्मः कः इत्युक्ते सास्नावत्वम् इति अग्रे गत्वा पश्येम. सास्ना इत्युक्ते गोः कण्ठभागे कश्चन अवयवः अस्ति, स्किन् इव दृश्यते, मृदु अवयवः लम्बते. हा, तादृशसास्ना केवलं गोषु वर्तते, न तु अश्वमहिषादिषु. अस्तु, तदेव गवां लक्षणम् इति उच्यते. गोत्वाश्रयेषु यावत्सु भवति, गोत्वाभावाश्रयेषु, गोत्वाभावः अस्ति अश्वे महिषी च खलु, गोत्वमिति नास्ति. अश्वे अश्वत्वं, महिष्यां महिष्यत्वम् इति किमपि अस्ति चेत् तत्र न भवति अयं धर्मः सास्नावत्वम् इति. तर्हि तद् न लक्षणं, तदेव लक्षणमस्ति गवाम् इति वदामः. अस्तु, इति परिचयत्वेन उक्तमस्ति लक्षणं किं लक्ष्यं किम् इति. इतोपि शास्त्रीयरीत्या लक्षणस्य परिभाषा कथं दीयते एभिः इति पश्येम. अग्रे विद्याशङ्करमहोदय पठति वा अग्रिमपुटे यदस्ति?
आम्, उपरि अस्ति. तथा च यत् सर्वेषु लक्ष्येषु भवति, अलक्ष्येषु न भवति तद् लक्षणं. यः पदार्थः एवंविधः न भवति सः न लक्षणः, न लक्षणं, किन्तु लक्षणाभासः.
लक्षण आभासः. आभासः इत्युक्ते भानम्
अभावः.
आभासः इत्युक्ते न भाति इति न, अपियरेन्स् अस्ति तावदेव. अस्तु, इदानीं गां दृष्ट्वा अस्तु गोषु सर्वेषु शृङ्गः अस्ति इति चिन्तयामश्चेत् तद् लक्षणं नास्ति, लक्षणाभासः, अपियरेन्स् एव लक्षणस्य. लक्षणम् इव भाति किन्तु लक्षणं नास्ति, यतोहि इतोपि गभीरपरिशीलनेन जानीमः यत् अस्तु शृङ्गादयः तु बहुत्र वर्तते, न केवलं गोषु इति. तदर्थं लक्षणं किम् इति सुष्ठुरीत्या अस्माभिः अवगन्तव्यं भवति. तन्निमित्तम् अग्रे त्रयः दोषाः विवृताः सन्ति. अस्तु, अग्रे महोदय.
कः गुणः लक्षणयोग्यः इति अत्रे अग्रे
सत्यं
पठामः. अस्तु, अव्याप्तिदोषः. कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते किन्तु केषुचिदेव सः अव्याप्तः इति उच्यते. यथा गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तम्. इदं च श्वेतरूपं गोजातीयायां श्वेतगवि एव वर्तते, कृष्णगवि नास्ति इति. तत्र अव्याप्तिः इति लक्षणदोषः भवति. प्रकृतचित्रे आहत्य अष्टौ गावः सन्ति, तासु सर्वासु गोत्वमस्ति. तत्र प्रथमा, द्वितीया, चतुर्थी, षष्ठी च श्वेतरूपवती, परन्तु तृतीयायां पञ्चम्यां सप्तम्याम् अष्टम्यां च गवि श्वेतरूपं नास्ति, अतः गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः वर्तते, अतः श्वेतरूपं न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः। प्रथमलक्षणस्य लक्षणस्य के निकषाः इति, प्रथमः अस्ति अव्याप्तिदोषः। अत्र उदाहरणं अव्याप्तिदोषः इत्युक्ते यः लक्षणः केषुचित् एव जातीय सदेशेषु भवति, सर्वेषु सदस्येषु न भवति। यथा उदाहरणमस्ति गोविषये, धेनुविषये श्वेतरूपं, श्वेतरूपं केषुचित् धेनुषु वर्तते किन्तु सर्वासु धेनुषु श्वेतरूपं नास्ति, तदर्थं श्वेतरूपम् इति गोत्वस्य लक्षणम् इति न स्वीकर्तुं शक्नुमः। तत्र चित्रे चत्वारः गावः श्वेतरूपाः, अन्यः अन्यवर्णाः, तदर्थं वर्णः श्वेतरूपम् इति लक्षणः न भवति, तस्मिन् अव्याप्तिदोषः अस्ति।
हा हा, कस्मिन् अव्याप्तिदोषः अस्ति?
श्वेतरूपम् इति लक्षणमिति स्वीकुर्मः चेत्।
हा समीचीनं, श्वेतरूपम् इत्यस्मिन् अव्याप्तिदोषः अस्ति, किमर्थम् इति महोदयेन उक्तं, लक्ष्ये सर्वत्र नास्ति, लक्ष्यम् इति सर्वाः गावः, तस्मिन् लक्ष्ये एकदेशवृत्तित्वम् इति अव्याप्तिदोषः, लक्ष्ये एकदेशवृत्तित्वम् अथवा लक्ष्यैकदेशवृत्तित्वम् इति अव्याप्तिदोषः, नाम लक्ष्ये केषुचित् एव सदस्येषु वर्तते अपरत्र न वर्तते इति एकः दोषः, तादृशदोषग्रस्तः अस्ति श्वेतरूपम् इति, तर्हि तत्तु न भवितुम् अर्हति, लक्षणं न भवितुम् अर्हति, गवां लक्षणं नास्ति इति। अग्रे सरेम इतः, अग्रे रत्ना भगिनी।
आं भगिनि, अतिव्याप्तिः दोषः, द्वितीयदोषः अतिव्याप्तिः, एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति, यथा गौः शृङ्गं लक्षणमुक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते। अग्रे पठामि वा भगिनि? अस्तु अस्तु, पूर्वं वयम् अव्याप्तिदोषः कः इति पठितवन्तः, इदानीम् अतिव्याप्तिदोषः इत्युक्ते कः इति दीयते। एषः द्वितीयविधदोषः अस्ति। अत्र किं भवति इत्युक्ते लक्ष्ये लक्ष्ये सर्वेषु सदस्येषु एषः गुणः वर्तते, किन्तु अलक्ष्येषु इत्युक्ते ये अस्माकं लक्ष्यस्य सदस्याः न सन्ति तेषु अपि वर्तते एषः गुणः। यथा उदाहरणम् अत्र उक्तं, भवती अपि पूर्वम् उक्तवती, गौः शृङ्गम् इति वर्तते सर्वेषु गोषु, किन्तु शृङ्गः अलक्ष्येषु इत्युक्ते अजादिषु अपि वर्तते, अतः शृङ्गः गोलक्षणम् इति स्वीकुर्मः चेत् तत् अतिव्याप्तिदोषः भवति।
सत्यम्, अतिव्याप्तिदोषग्रस्तः गुणः भवति अथवा धर्मः भवति शृङ्गम् इति। हा, शास्त्रे अतिव्याप्तिदोषस्य विवरणं लक्ष्येतरस्थले विद्यमानत्वम् अथवा अलक्ष्ये वृत्तित्वम् इति उच्यते। अलक्ष्ये वृत्तित्वं नाम अजादयः अस्माकं लक्ष्यं नास्ति, अलक्ष्याः तेषु अपि वृत्तित्वं भवति शृङ्गस्य इति कृत्वा तद् अतिव्याप्तिदोषग्रस्तधर्मः अस्ति। अस्तु, इति द्वितीयः दोषः। तृतीयः कः इति पश्येम। जयन्ति भगिनि,
एकनिमिषं, किञ्चित् किञ्चित् समयः आवश्यकः.
अस्तु अस्तु अस्तु, यदा सिद्धा अस्ति
तदा. रक्षा भगिनी, अहं वेङ्कटेशः, क्षम्यतां कञ्चित् किञ्चित् विलम्बः जातः.
न न, चिन्ता नास्ति.
कार्यालयात् आह्वानम् आगतं तदा अतः.
अस्तु अस्तु महोदय, चिन्ता नास्ति. वेङ्कटेशमहोदय, अन्य कोऽपि अस्ति वा यस्य नाम मम पार्श्वे नास्ति?
नीता अस्मि भगिनि, नमस्कारः.
ओ अस्तु, नीता भगिनि, नमस्कारः. अस्तु वर्धिनी भगिनी, अग्रे असम्भवदोषः.
असम्भवदोषः तृतीयो दोषः असम्भवः, यः धर्मः न कस्मिन्नपि लक्ष्ये भवति तस्मिन् आयाति. यथा केसराः सिंहजटाः गोः लक्षणमित्युक्तं, तत्र गोजातीयायां कस्यामपि गवि सः धर्मः नास्ति इति तस्मिन् असम्भवे असम्भवो दोषः. पूर्वोक्तसान्नरूपधर्मः शासनारूपधर्मः गवि वर्तते, अतः न सम्भवो दोषः सर्वासु गोषु अस्ति इति नाव्याप्तिदोषः. एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिदोष इति निर्दुष्टं सास्नावत्वं गोः लक्षणमिति उच्यते.
अत्र सारांशत्वेन वदतु भगिनि, तृतीयः दोषः कः?
तृतीयदोषः असम्भवदोषः. धर्मः न कस्मिन्नपि लक्ष्ये भवति तस्मिन् आयाति.
हा, इत्युक्ते अस्माकं लक्ष्यं किम् अत्र अस्मिन् अस्यां चर्चायां लक्ष्यं किम्? आरम्भतः यद्विद्याशङ्करमहोदयेन रत्नभगिन्या च पठितं तत्र तत्र लक्ष्यं किम् आसीत्?
पृथिवी लक्ष्यं,
गावः लक्ष्यं खलु. गवाम् उदाहरणं स्वीकृत्य अत्र चर्चा जायमाना अस्ति. अस्तु, तर्हि गावः इति लक्ष्यम्. अधुना सिंहजटाः गोषु वर्तते वा
न वर्तते?
सिंहजटः इत्युक्ते सिंहस्य केशः, तत्तु नास्ति. तर्हि कीदृशदोषग्रस्तः सः धर्मः? सिंहजटत्वम् इति स्वीकुर्मश्चेत् तत्र कीदृशदोषः आगच्छति? यतोहि गोसामान्यजाति गोत्ववृत्तित्वं यत्र यत्र भवति तत्र न भवति एव सिंहजटाः इत्येव असम्भवदोषः. लक्ष्यसामान्यावृत्तित्वं नाम लक्ष्यसामान्ये अवृत्तित्वं, तादृशः गुणः अस्ति असम्भवदोषग्रस्तगुणः अथवा असम्भवदोषग्रस्तधर्मः. तर्हि अन्ततो गत्वा एतस्य सर्वस्य परिशीलनं कृत्वा जानीमः यत् सर्वासु गोषु यः कोऽपि धर्मः अस्ति, यः न वा अव्याप्तिदोषग्रस्तः, न वा अतिव्याप्तिदोषग्रस्तः, न वा असम्भवदोषग्रस्तः, तादृशधर्मः कः? सास्नावत्वं खलु. गोः सास्ना इति कश्चन अवयवः केवलं गोषु वर्तते, न अन्यत्र, अपि च सर्वासु गोषु वर्तते, अपि च असम्भवदोषग्रस्तः अपि नास्ति इति कृत्वा सास्नावत्वं गोः लक्षणम् इति उच्यते. गोः अधुना कथं वक्तुं शक्नुमः इत्युक्ते गौः सास्नामति इति वक्तुं शक्नुमः, यथा गन्धवती पृथिवी तथा गौः सास्नावती मति इति वक्तुं शक्नुमः. पुनः त्वम् इति प्रत्ययः अथवा भाववाचकप्रत्ययस्य योजनेन सास्नावत्वम् इति आगच्छति, सास्नावत्वं गोः लक्षणम् इति वक्तुं शक्नुमः. तद्वत् एषा वाक्यरचनाशैली यथा अस्ति सास्नावत्वं गोः लक्षणं, तद्वद् गन्धवती पृथिवी इत्यस्य वदनस्य स्थाने लक्षणम् अधिकृत्य गन्धवत्वं पृथिवी लक्षणम् इति अपि वक्तुं शक्यते. अस्तु, तस्य भेदनिरूपणम् इति अग्रिमविचारः. तस्मात् पूर्वं किञ्चित् चिन्तनं कुर्मः. अधुना गन्धः इति पदार्थः, गन्धः इति गुणः पृथिव्याः लक्षणं भवति चेत् तत्र गन्धे एते दोषाः भवति वा? किं चिन्तयन्ति? अव्याप्ति अतिव्याप्ति असम्भवदोषाः गन्धे अस्ति वा? अजितमहोदय, अजितमहोदय अस्ति किम्?
आं भगिनि, गन्धे अतिव्याप्तिदोषः नास्ति, अव्याप्तिदोषः नास्ति.
अस्तु अस्तु, अतिव्याप्तिदोषः नास्ति. किमर्थम्?
किमर्थम् इत्युक्ते गन्धः अस्ति चेत् तत्र पृथिवी एव पृथिवी अस्ति एव इत्युक्ते
समीचीनम्. अलक्ष्ये वृत्तित्वम् इति अतिव्याप्तिदोषः. लक्ष्यं पृथिवी, लक्ष्यं पृथिवी इति चेत् अलक्ष्यं किम्?
पृथिवी विहाय जगति सर्वत्र.
सत्यं सत्यं. हा, लक्ष्यम् इति पृथिवी चेत् अलक्ष्यं जलं तेजः वायुः. तर्हि गन्धः तेषु वर्तते वा? जले तेजसि वायौ इत्यादिषु द्रव्येषु
नास्ति.
नास्ति, तर्हि गन्धः अतिव्याप्ति, हा, गन्धः अतिव्याप्तिदोषग्रस्तगुणः नास्ति. अव्याप्तिदोषग्रस्तः अस्ति वा?
अव्याप्ति नास्ति. इत्युक्ते पृथिवी सर्वत्र पृथिव्यां गन्धः वर्तते.
यत्किमपि पार्थिववस्तु अस्ति अथवा पार्थिवपदार्थः अस्ति तस्मिन् गन्धः अवश्यं वर्तते इति कृत्वा अव्याप्तिदोषः नास्ति. नाम लक्ष्य एकदेशवृत्तित्वं नास्ति गन्धस्य. असम्भवदोषः अस्ति वा?
असम्भवदोषः यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् आयाति.
गन्धस्य असम्भवदोषः इति वक्तुं गन्धः तादृशगुणः अस्ति किं यः न भवति एव पृथिव्याम्?
नास्ति.
नास्ति खलु, गन्धः अवश्यम् अस्ति पृथिव्याम् इति कृत्वा असम्भवदोषः अपि निवारितः. तर्हि एषः, हा, एषः ग्रन्थः लक्षणम् इति वदामः, यतोहि लक्षणम् इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवदोषरहितत्वम् इति लक्षणं. गन्धस्य तादृशः अस्ति धर्मः, नाम अव्याप्ति अतिव्याप्ति असम्भवदोषरहितत्वं गन्धस्य स्वभावः अस्ति पृथिवीस्थले इति कृत्वा गन्धः इति पृथिव्याः लक्षणम् इति वदामः. अस्तु, तर्हि इदानीम् अजितमहोदय वदतु, इदानीं जले खलु, जले कथञ्चित् गन्धम् अनुभवामश्चेत् जलं कदाचित् दुर्गन्धजलमपि भवति, सुगन्धयुक्तजलमपि भवति खलु, तत्र कीदृशी स्थितिः स्यात्?
तत्र जले गन्धमस्ति चेत् तत्र पार्थिवपदार्थः अपि अस्ति इति तस्य लक्षणम्.
बहु समीचीनं महोदय. तर्हि गन्धः कुत्र भवति जले?
जले जलस्य जले पार्थिव पार्थिवपदार्थे एव भवति.
हा, जले पृथिव्याः अंशाः सन्ति तस्मिन्नेव गन्धः भवति. नाम तत्र उच्यते यत् स्वाश्रयसंयोगेन स्वाश्रयसंयोगेन जले गन्धः भवति इति उच्यते. स्वम् इति गन्धः, गन्धस्य आश्रयः कः महोदय?
गन्धस्य आश्रयः पृथिवी.
हा, पृथिवी, पृथिवी जले केन सम्बन्धेन वर्तते?
पृथिवी जले संयोग सम्बन्धेन.
हा संयोगसम्बन्धेन वर्तते इति कृत्वा आहत्य स्वम् इति गन्धः इति स्वीकुर्मश्चेत् स्वाश्रयः पृथिवी पृथिव्याः जलेन सह संयोगसम्बन्धः इति आहत्य गन्धः स्वाश्रयसंयोगेन जले वर्तते इति वक्तुं शक्नुमः. यद्यपि जले गन्धः अनुभूयते तथापि गन्धः जलस्य लक्षणम् इति न वक्तुं शक्नुमः यतोहि पृथिव्यामेव अस्ति इति विचारः आगतः अस्ति. अस्तु समीचीनं तर्हि लक्षणवाक्ये अग्रिम हा प्रश्नः अस्ति
कामेण्ट् अस्ति ननु असम्भवदोषः प्रथमं परिशीलनीयं गुणः तस्मिन् नास्ति चेत् अग्रे किम्
इति तु सत्यं गुणः एव नास्ति चेत् किमर्थं वा अव्याप्ति अतिव्याप्ति हा प्रायः न जाने किमर्थम् एषः क्रमः अस्ति इति परन्तु असम्भवदोषः आदौ परिशील्यते चेत् तद् एलिमिनेट् भवति एव गन्धः सत्यं हा अस्तु समीचीनम्. इतः अग्रे गत्वा लक्षणवाक्येषु वयं दृष्टवन्तः पृथिव्याः लक्षणवाक्ये अपि नित्या परमाणुरूप अनित्या कार्यरूप इति अस्ति. तर्हि नित्यम् अनित्यम् इति द्रव्यं द्विविधम् अस्ति इति जानीमः. यः कोऽपि पदार्थः भवतु नित्यः अथवा अनित्यः भवति. अत्र पृथिवी नित्या इत्युक्ते परमाणवः पार्थिवपरमाणवः ये भवन्ति ते नित्याः. अनित्याः कार्यरूपः इत्युक्ते जन्यः यः कोऽपि घटः पटः इत्यादि पार्थिवपदार्थाः ते अनित्याः इति उच्यते इति जानीमः. किन्तु शास्त्रीयरीत्या वदामश्चेत् नित्यः इत्युक्ते तादृशपदार्थः यस्मिन् प्रागभावः अपि नास्ति प्रध्वंसाभावः अपि नास्ति. वयं दृष्टवन्तः अभावस्य चतुर्विधत्वं. तर्हि प्रागभावः यस्मिन् नास्ति प्रध्वंसाभावः अपि यस्मिन् नास्ति तादृशपदार्थः नित्यः इति उच्यते. उदाहरणत्वेन आकाशम् इति स्वीकुर्वन्तु. आकाशस्य प्रागभावः नास्ति नाम आकाशस्य निर्माणसामग्रीं दृष्ट्वा न कोऽपि वक्तुं शक्नोति अस्तु अत्र आकाशाभावः तादृशं नास्ति आकाशः प्रागभावः. प्रध्वंसाभावः प्रागभावः अपि नास्ति प्रध्वंसाभावः अपि नास्ति यः कोऽपि आकाशस्य नाशं कर्तुं न शक्नोति तादृशः अस्ति नित्यः. यस्मिन् पदार्थे एतौ अभावौ आगच्छतः तादृशपदार्थः अस्ति अनित्यः इति. तर्हि उच्यते यत् उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यत्वम्. उत्पत्तिशून्यत्वे नाशशून्यत्वम् इति नित्यम्. उत्पत्तिशालित्वे सति नाशशालित्वम् इति अनित्यमस्ति. अत्र किमपि चिन्तनमस्ति वा कस्यचित्? अस्तु तर्हि आहत्य
वदतु भगिनि. उत्पत्तिशून्यत्वे सति अशून्यत्वम् इति वा?
उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यम् नाम सः एव विचारः. प्रागभावः नास्ति प्रध्वंसाभावः नास्ति सः एव विचारः भिन्नरीत्या उत्पत्तिशून्यत्वं नाशशून्यत्वम् इति उक्तं. तत्र तस्य विपरीतत्वेन उत्पत्तिशालित्वे सति नाशशालित्वम् इति अनित्यम्.
शालित्वम् इत्युक्ते किं?
यथा शक्तिशाली इति वदामः खलु यस्मिन् शक्तिः अस्ति तथा अस्ति. तर्हि आहत्य प्रागभावं प्रति प्रतियोगिता अपि च प्रध्वंसाभावं प्रति प्रतियोगिता नास्ति नित्यद्रव्ये इति आगतमस्ति. अस्तु इदानीम् अस्माकं मुख्यविचारः यद् न्यायग्रन्थे इतः अग्रे गत्वा सर्वत्र लभ्यते लक्षणवाक्येषु गन्धवत्वं पृथिवी लक्षणम् अपि च गन्धवती पृथिवी अनयोः भेदः कः इति निरूपणमस्ति. तर्हि अग्रे पठेम. वेङ्कटेशमहोदय आरब्धुमिच्छति वा?
कुतः आरभ्य भगिनि क्षम्यतां नित्यत्वादि विभागः
तत् समाप्य तत्र गन्धवती पृथ्वी अग्रिमपृष्ठे चत्वारिंशत्तमे पुटे
गन्धवती पृथिवी इति मूलाक्षरैः दत्तं तत्र तथा आरभ्य वा?
हा परिच्छेदद्वयं प्रायः पठित्वा किञ्चित् सारांशत्वेन वदतु.
अस्तु गन्धवती पृथिवी गन्धवत्वं पृथिवीलक्षणम् इत्यनयोः भेदनिरूपणं उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आधेयभावः तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति अत्रापि शीतस्पर्शः आधेयः आपः जलम् अधिकरणम् शीतस्पर्शो आधेयता तन्निरूपित अधिकरणता जले अधिकरणताश्रयः जलम् अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युच्यते परन्तु सङ्ग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति यथा सास्नादिमती गौः इति लौकिकव्यवहारः यथा यथा वा नीलो घटः इति व्यवहारः परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वत्लादिभाववाचकप्रत्ययं कृत्वा क्षम्यतां वाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्टीं प्रयुज्यते यथा प्रयुज्यते यथा गन्धवत्वं पृथिव्याः लक्षणम् इति तर्हि तत्र इदानीं गन्धवती पृथिवी गन्धवत्वं पृथिवी लक्षणम् इत्यनयोः भेदनिरूपणम् अत्र विवृतमस्ति उदाहरणं तत्र इदानीं यथा आधार आदेयभावः उपयुज्य वयं तत्र एकस्य लक्षणभावं वयं वदामः चेत् उदाहरणं जलस्थले शीतस्पर्शः अपां लक्षणम् इति जलस्य लक्षणम् इति सति तत्र आधार आदेयभावः अस्ति आदेयः तु शीतस्पर्शः तस्य अधिकरणं जलम् अस्ति तर्हि तत्र शीतस्पर्शजलयोः मध्ये आधार आदेयभावः अस्ति यः एकः आदेयः तत्र अधिकरणम् एकमस्ति जलम् इति तर्हि तत्र यः आदेयः तस्मिन् आदेयता वर्तते यः अधिकरणम् अस्ति यत् अधिकरणमस्ति तत् तस्मिन् अधिकरणता वर्तते तत्र आदेयतानिरूपित अधिकरणता जले इति अधिकरणताश्रयः जलम् इति वक्तुं शक्यते तर्हि तत्र
इति सर्वं सत्यं परन्तु शीतस्पर्शः अपां लक्षणम् अथवा गन्धः पृथिव्याः लक्षणमिति शीतस्पर्शः अपां लक्षणमिति वदनेन प्रायः आधारादेयभावः सुष्ठु न प्रतिभाति खलु इत्युक्ते तत्र वत् इति मतुप्रत्ययः अपि नास्ति किमपि सूचयितुम् अन्यत् किमपि नास्ति अतः अपरया रीत्या वक्तव्यमस्ति इति अग्रे महोदय
तर्हि तत्र लक्षणस्य लक्ष्ये विद्यमानत्वं यदा वर्ण्यते तत्र समन्वयः इति तस्य अर्थः तर्हि तत्र जलम् अधिकरणं तत्र अधिकरणाश्रयत्वं जले अस्ति इति समन्वयः तत्र तथा वयं वत्वम् इति मतुप्रयः प्रत्ययम् उपयुज्य यदा वदामः इति वा तत्र समन्वयः तर्हि परन्तु सङ्ग्रहे वयं गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादि लक्षणवाक्यानि लौकिके व्यवहाररूपे भवन्ति तत्र तर्हि तत्र गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इति तत्र मतुप्रत्ययम् उपयुज्य वयं वदामः यथा सास्नादमती गौः नीलः घटः इति व्यवहारे उच्यते तर्हि तत्र लादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचक
गन्धवती पृथ्वी अस्तु शीतस्पर्शवत्यः आपः इत्यादिषु कः प्रत्ययः अस्ति
तत्र किं तत्र
गन्धवती इत्यस्मिन् मतुपेव खलु हा मतुपेव नैयायिकाः किं कुर्वन्ति इति अग्रिमवाक्यं पठतु महोदय
परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं स्वतलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्टीं प्रयुज्यते
तत्र लक्षणवाचकं पदं किम् अस्ति गन्धवती पृथ्वी इत्यस्मिन् गन्धवती इति लक्षणवाचकपदं खलु
लक्षणवाचकपदम् आमां सत्यं
हा तस्मात् लक्षणवाचकपदात् कः प्रत्ययः युज्यते
पृथिवी इति विद्यते तत्
न प्रत्ययः तु त्व अपि च तल् इति भाव हा
प्रत्ययः
प्रत्ययः त्व अथवा तल् इत्यादि भावसूचक अथवा भाववाचकप्रत्ययं कृत्वा कीदृशप्रयोगः भवति
लक्ष्यवाचक
हा लक्षणवाचकपदोत्तरं षष्टि प्रयुञ्जते यथा लक्ष्यवाचकपदोत्तरं षष्टि लक्ष्यं तु पृथ्वी अस्ति अस्तु लक्षणम् इति लक्षणवाचकपदं गन्धवती इति आसीत् तर्हि लक्षणवाचकपदोत्तरं त्व तल् इत्यादिं कृत्वा लक्ष्यवाचकपदोत्तरं षष्टि उपयुज्यते तदा वाक्यं कथं भवति
गन्धवत्वं पृथिव्याः लक्षणम् इति
हा 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 समीचीनं महोदय इति व्यवहारः भवति नैयायिकानां
तत्र त्वल् प्रत्ययस्य अनन्तरं तत्र लक्ष्यवाचकपदस्य षष्ठीम् उपयुज्य गन्धवत्वं पृथिव्याः लक्षणम् इति तर्हि तत्र शीतस्पर्शवत्वम् अपां लक्षणम् इति अपां लक्षणम् इति वा तथा
समीचीनं सत्यम् इति अस्ति अनेन अधिकरण आधेय अधिकरणभावः अथवा अधिकरणं किं तस्मिन् आधेयः कः इति सम्यक्तया अवगन्तुं शक्नुमः नाम टैट्लि बौण्ड् अस्ति गन्धवती पुनः गन्धवती इत्युक्ते अधोगमनं गन्धः पृथिव्याम् अस्ति पुनः तस्मात् उपरि गमनं गन्धवत्वम् इति उक्त्वा पृथिव्याः लक्षणम् इति निर्देशः भवति अस्तु एतादृशः व्यवहारः किमर्थं क्रियते तैः इति अग्रिमपरिच्छेदः
भगिनि एकः प्रश्नः समन्वयः इत्युक्ते टैट्लि बौण्ड् एव वा समन्वयः
समन्वयः तथा नास्ति टैट्लि बौण्ड् इति नास्ति समन्वयः इत्युक्ते अन्वेति अथवा आगच्छति एज़ अ रिसल्ट् आगच्छति इति वदामः खलु तथा अधुना अधिकरणताश्रयः जलम् अथवा अधिकरणताश्रयत्वं जले अस्ति इति आगच्छति इति समन्वयः कदा तादृशसमन्वयः भवति यदा आधाराधेयभावः निरूपितः भवति तदा शीतस्पर्शे आधेयता अधिकरणता जले इति निरूपितः यदा भवति तदा अधिकरणताश्रयवत्वं जले अस्ति इति समन्वयः अथवा निष्कर्षः भवति इति
तर्हि समन्वय इति पारिभाषिकपदं वा
अत्र नास्ति इति चिन्तयामि फलितार्थः इत्यस्मिन् अर्थे इति चिन्तयामि अस्तु जयन्ति भगिनी अधुना पठितुं शक्नोति वा
तेषाम् आशयः वा
आमां तस्मात्
तेषाम् अयम् आशयः लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम् प्रथमान्तपदैः सास्नादिमती गन्धवती शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः सास्नादिमती का गौरेव गन्धवती का पृथ्वी एव शीतस्पर्शवत्यः काः आपः एव एवं च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानोऽपि आधारादेयभावः न बुध्येत अतः तज्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात् अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती युतत्व गन्धवत्व इति पदं भवति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते स च भावः गन्धसमानकक्ष्यः भवति अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः अत एव प्रसिद्धः नियमः मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति
भगिनि
अत्र लक्षणवाक्ये लक्षणस्य निरूपणार्थं शास्त्रे आधार आदेयभावः तु प्रमुखः अस्ति तस्य प्रकटनार्थं भावप्रत्ययस्य प्रयोगः एव भवति इति सारांशः अस्ति यथा गन्धवती पृथ्वी इति वदामः तत्र गन्धवती इति वदनेन पृथ्व्यां यत् वैशिष्ट्यं भवति या वा का या यः धर्मः अस्ति तस्य प्रकटनं न भवति अतः गन्धवत् इति तत्र मतुप्रत्ययः अस्ति गन्धवत् इत्यनेन त्वप्रत्यय योजयित्वा गन्धवत्वम् इति पदं निष्पद्यते गन्धवत्वम् इति धर्मः पृथ्व्याम् अस्ति इति कृत्वा सः भावप्रत्ययः लक्षणस्य किं धर्मः अस्ति इति
लक्ष्यस्य धर्मः
आम् तत्र विभक्ति विषये लक्ष्यवाचकपदस्य विभक्तिः लक्ष्यं तु पृथ्वी इत्यस्य इति पदस्य षष्टिविभक्तिः पृथ्व्याः इति भवति तदनन्तरं यः धर्मः वक्तुम् इच्छामः तस्य भावप्रत्ययपदं भवति यथा गन्धवत्वम् इति मत्तु इत्यनेन योजयित्वा
हा अत्र अन्तिमवाक्यं पठतु मत्वर्थीयात्
तत्र मत्तुप्रत्ययेन योजयित्वा गन्धवत्वम् इति यत् अस्ति तस्य अर्थः गन्धः एव अतः एव प्रसिद्धः नियमः मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति इत्युक्ते गन्धवत् वा स्पर्श वा अथवा यत्किमपि सास्नावत् इत्यनेन मतुप्रत्ययेन त्व योजयित्वा यः यत् पदं भवति भावप्रत्ययः तत्र तस्य अर्थः निष्पद्यते इति खलु
हा इति सम्यक्तया उक्तमेव भवत्या मत्वर्थीयात् इत्युक्ते अधोगमनं मतुप्योजनेन अधोगमनं गन्धात् अत्र चित्रमपि अस्ति गन्धवती पृथ्वी इति पृथिव्याः सूचना भवति तेन तया अपि च पृथ्वीतः पुनः गन्धवती पृथ्वीतः उपरि गमनार्थं त्वप्रत्ययः गन्धवत्वम् इति तर्हि तथा कुर्मश्चेत् चित्रे अपि द्रष्टुं शक्नुमः खलु समानस्तरे स्तः गन्धः अपि च गन्धवत्वं समानस्तरे स्तः इति कृत्वा मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति प्रकृतिः इति गन्धः गन्धस्य अर्थमेव सूचयति इति
अत्र प्रकृत्यर्थम् इत्युक्ते किं भगिनि
प्रकृति इत्युक्ते गन्धः अस्तु अस्माकं प्रकृतिः अथवा मूलविषयः गन्धः आसीत् गन्धात् मत्वर्तीयं कृत्वा गन्धवत् पुनः वत् इत्यस्मात् त्वा कृत्वा गन्धवत्वम् उपरि गमनम् आसीत् आहत्य गन्धः एव सूचितः इति प्रकृति इत्युक्ते मूलं यदासीत् तस्मिन् तं प्रति एव गच्छति मत्वर्थीयात् भावप्रत्ययः इति सूचना अस्ति. अपि च गन्धवत्वं पृथिव्याः लक्षणम् इति वदनेन तत्र प्रथमा विभक्तिः कस्य पदस्य भगिनि?
प्रथमा विभक्ति तु गन्धवत्वम् एव.
गन्धवत्वं खलु पृथिव्याः इति षष्ठी विभक्ति. कस्मिन्नपि वाक्ये यस्य कस्यापि प्रथमा विभक्ति भवति तस्य निर्देशः खलु. एषः रामः इति वदनेन रामः इत्यस्य निर्देशः. एषा रामस्य भगिनी इति वदनेन या कापि भगिनी अस्ति सा प्रथमा विभक्त्यां तस्याः निर्देशः भवति वाक्येन. तर्हि लक्षणस्य निर्देशः साक्षात् भवतु इति एतेषाम् आशयः. गन्धवत्वं पृथिव्याः लक्षणम् इति वदनेन गन्धवत्वं लक्षणम् अनयोः विशेषणविशेष्यभावः. समीचीनम् इति कृत्वा लक्षणं किं गन्धवत्वम् इति उत्तरम् आगच्छति. तदर्थम् एषः प्रयासः कृतः तैः. अपि च एतादृशशैली तटस्थलक्षणमिति उच्यते. नाम तत्र गन्धः यदा यथा नदी अपि च तटः भवति, नदी अपि च तटः द्वौ भिन्नौ पदार्थौ, तथापि एकस्य ज्ञानेन अपरस्य ज्ञानं भवति. तटं ज्ञात्वा एव एषा नदी इति वक्तुं शक्यते. तथा गन्धवत्वम् इति तटः अस्ति, नाम तत्र एका सीमा अस्ति. गन्धवत्वं पृथिव्यामेव भवति, पृथिवीभिन्नस्थले न भवति इति तादृश ज्ञानमपि भवति तटस्थलक्षणम् इति.
गन्धवत्वम् इति वदनेन पृथिव्याः उल्लेखः भवति इति अर्थः.
गन्धवत्वम् इति वदनेन पृथिवी एव अस्माकं ज्ञानस्य परिधौ आगच्छति.
क्षम्यता महोदय, एवं चेत् गन्धवत्वं पृथिव्यायाः धर्मः इति दोषः वा?
न, दोषः नास्ति, समीचीनमेव.
दोषः नास्ति.
धर्मः इत्युक्ते स्वभावः अस्तु. किन्तु लक्षणं कीदृशधर्मः इत्युक्ते असाधारणः धर्मः.
असाधारणधर्मः एव लक्षणम्.
लक्षणम् असाधारणधर्मः इत्युक्ते पुनः यः कोऽपि धर्मः अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः तादृशधर्मः आहत्य तदेव लक्षणम् इति उच्यते न्यायशास्त्रे. अस्तु, अग्रे सरेम इतः. तर्हि नीता भगिनी अग्रे पठति वा?
आं भगिनि. तथा च सास्नावत्वम् इत्यनेन सास्ना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधाराधेयभावः धर्मधर्मिभावः सुस्पष्टः भवति इत्यमेव शास्त्रे तटस्थलक्षणमिति उच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायुः लक्षणमिति ग्रन्थकारैः व्याख्यायते. तथा च सास्नावत्वम् इत्यनेन सास्ना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शत्वम् इत्यनेन शीतस्पर्शः बोध्यते
इति अधुना जयन्ती भगिनी उक्तवती, विवृतवती खलु.
अतः
अनेन आधाराधेयभावः सुस्पष्टः भवति. नाम गन्धवत् इति वदनेन कश्चन पदार्थः अस्ति यः गन्धस्य अधिकरणम् इति जानीमः. पुनः गन्धवत्वम् इति वदनेन तस्यैव पदार्थस्य धर्मः कः इति अपि जानीमः. आहत्य धर्मः अस्ति, अपि च धर्मः कस्मिन् अस्ति, धर्मी, यस्मिन् कस्मिन् अपि धर्मः अस्ति सः धर्मी इति कृत्वा धर्मधर्मीभावः अपि स्पष्टं भवति. अस्तु, यथा तद्वदेव रूपरहितस्पर्शवान् वायुः इत्यत्र वायुः इत्यस्य प्रथमा विभक्ति अस्ति, तद् न इष्यते. तटस्थलक्षणरूपेण वक्तुम् इच्छामश्चेत् रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति आगतम्. अस्तु
भगिनि, एकः प्रश्नः इत्युक्ते पृथिव्यां पृथिवीत्वम् इति अपि धर्मः अस्ति, गन्धवत्वम् इति अपि धर्मः अस्ति किल भगिनि?
सत्यम्.
ओके,
पृथिवीत्वं, हा, पृथिवीत्वम् इति धर्मः सामान्यम् इति वक्तुं शक्यते खलु. समानानां धर्मः सामान्यम्.
हा,
तत्र किं सूक्ष्मभेदः एव अस्ति. ममापि चर्चा जाता अपरे एक सोमवासरस्य वर्गे एकः महोदयः आगच्छति, तर्हि सः उक्तवान् धर्मः सर्वदा सामान्यं न भवितुम् अर्हति इति. नाम गन्ध, हा, पृथिवीत्वं तु अवश्यं सामान्यं भवति. पृथिवीत्वम् इति एका जातिः, किन्तु अत्र गन्धवत्वम् इति विलक्षणधर्मरूपेण यद् स्वीक्रियते, यं यः धर्मः स्वीक्रियते, सः धर्मः स्वभावस्य सूचकः भवति इति कृत्वा प्रायः सः धर्मः कस्यामपि श्रेण्यां न अन्तर्भवति. इन्नेट् क्वालिटि इति तादृशधर्मः अस्ति गन्धवत्वम्. इन्हरेण्ट् क्वालिटि अथवा इन्नेट् क्वालिटि तथा.
अस्तु
अस्तु, इति कश्चन भेदः अस्ति एव, अस्य विषये चिन्तनं करणीयम्.
अस्तु भगिनि, अस्तु
अस्तु अस्तु, तर्हि अस्मिन् तदेव उक्तमस्ति, अग्रिमपरिच्छेदद्वये तथा एव अस्ति. गन्धः आदेयः, तस्य अधिकरणं पृथ्वी इति सुष्ठुरीत्या निरूपयितुं शक्नुमः. गन्धनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वं पृथ्वी लक्षणम् इति फलितार्थः. एवमेव अग्रे गत्वा शीतस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वम् अपां लक्षणं, जलस्य लक्षणम् अथवा शीतस्पर्शवत्वम् अपां लक्षणम् इत्यपि आगच्छति. उष्णस्पर्शवत्वं तेजसः लक्षणम् इत्यादिकम् आगच्छति इति. अस्तु, अग्रिमपृष्ठे अन्यानि लक्षणवाक्यानि सन्ति, शीतस्पर्शवत्यः आपः, सापि द्विविधा, शरीरेन्द्रियविषयभेदः अस्ति, शरीरं वरुणलोके नाम पुराणस्य अनुगुणं देवतानां शरीरं भवति इति ते वदन्ति. जलीयशरीरं वरुणलोके, इन्द्रियं तु रसग्राहकं, रसः इति गुणः भवति तेज, किं, जले. तर्हि इन्द्रियमस्ति रसग्राहकं, रसनं, जिह्वाग्रवर्ति. जिह्वा इति सम्पूर्णतया नास्ति इन्द्रियं, पश्यन्तु तत्र सर्वत्र जिह्वाग्रवर्ति, अथवा यथा पृथ्वी स्थले उक्तं घ्राणं नासाग्रवर्ति, तथैव वदन्ति. तर्हि उष्णस्पर्शवत् तेजः इति अस्ति, तस्य किञ्चित् परिशीलनं कुर्मः. अजितमहोदय तत् पठति वा? द्विचत्वारिंशत्तमे पुटे उष्णस्पर्शवत् तेजः इति.
आं भगिनि, कुतः आरभ्य भगिनि?
उष्णस्पर्शवत् तेजः इति पश्यति, द्विचत्वारिंशत् पेज् 42 मध्ये प्रथमवाक्यमस्ति शीतस्पर्शवत्यः आपः इति जलस्य लक्षणवाक्यं. ततः
अस्तु, उष्णस्पर्शत्वेजः, उष्णस्पर्शवत्तेजः तद् द्विविधं, नित्यमनित्यं च, नित्यं परमाणुरूपम्, अनित्यं कार्यरूपम्, पुनस्त्रिविधं शारीरेन्द्रियविषयभेदात् शारीरमादित्यलोके ശാരീരം ആദിത്യലോകെ, ഇന്ദ്രിയം രൂപഗ്രാഹകം, ചക്ഷുഹു കൃഷ്ണതാരാഗ്രവതീം, കൃഷ്ണതാരാഗ്രവർത്തി വിഷയചതുർവിധ ഭൗമദിവ്യോദര്യകരജഭേദാത് ഭൗമം വഹ്യാദികം അവിന്ധനം ദിവ്യം വിദ്യുദാദി ഭുക്തസ്യ പരിണാമഹേതുരുദ്ധ്യജ്യം ആകരജം സുവർണാദി.
ഇതി തേജസ ലക്ഷണവാക്യം. ഉഷ്ണസ്പർശവത് തേജ, ഉഷ്ണസ്പർശവത്വം തേജസ ലക്ഷണം ഇത്യേവ ഉക്തമസ്തി. അന്യത് സർവം സമാനം, നിത്യം അനിത്യം ച, നിത്യം പരമാണുരൂപം, അനിത്യം കാര്യരൂപം, തത്ര അവഗമനമസ്തി ഖലു അജിത് മഹോദയ?
നിത്യം അനിത്യം അവഗതം ഭഗിനി.
തദവഗതം ചേത് നിത്യം തു പരമാണു, തേജസഹ പരമാണവ ഭവന്തി തേ നിത്യാഹ. അനിത്യം കാര്യരൂപ നമ യദ് ജായത്തെ, യഥാ ഘടഹ ജായത്തെ, പടഹ ജായത്തെ, തർഹി യഹ കോപി അഗ്നിഹ ജായത്തെ, തദ് അനിത്യം അസ്തി. പുനസ്ത്രിവിധം ശരീരേന്ദ്രിയ വിഷയഭേദാ ശരീരം ആദിത്യലോകെ, തത്ര തേഷാം തേഷു ദിനേഷു മഹോദയന വാ അഥവാ ദ്രോണമഹോദയന ന ജാനേ ഉക്തമാസീത് യത് പുരാണസ്യ അനുഗുണം ദേവതാനാം ശരീരം ഏവ അത്ര ഉല്ലിഖിതം ഇതി. ആദിത്യലോകെ അഥവാ വരുണലോകെ തേഷാം ശരീരം ഭവതി ഇതി. അസ്തു, ഇന്ദ്രിയം തു ജാനീമഃ രൂപഗ്രാഹകം ചക്ഷുഃ, തേജസഃ രൂപമസ്തി തർഹി തദ് ഗ്രാഹ്യത്തെ ചക്ഷുഷാ ഇതി. വിഷയസ്ത്രിവിധ അത്ര ചിന്തനം കരണീയം. പ്രഥമമസ്തി ഭൗമ ദിവ്യോദര്യാകരബ്ജഭേദാത് ഇതി. വിഷയശ്ചതുർവിധ അസ്തി ഭൗമം ദിവ്യം ആകരജഃ അപി ച ഉദര്യഃ ഇതി. അത്ര ഭൗമം ഇത്യുക്തേ വഹ്നിഃ, യഹ കോപി വഹ്നിഃ അഥവാ അഗ്നിഃ ഭവതി ഭൗമം വഹ്ന്യാദികം അസ്തി. ഭൗമം ഇത്യുക്തേ ഭൂമൌ വിദ്യമാനം താദൃശ അഗ്നിഃ ഇതി ഉച്യത്തെ. അഭിന്ദനം ദിവ്യം വിദ്യുദാദിഹി ഇതി അസ്തി. തർഹി അജിത മഹോദയ, അഗ്രിമപൃഷ്ടേ തേജോ ഗ്രന്ഥെ ഇതി ഉക്തമസ്തി, തത് പഠതി വാ?
തേജോ ഗ്രന്ഥേ അവിന്ധനമിതി, തേജോ ഗ്രന്ഥേ അവിന്ധനമിതി ആപഹ ജലം നിമിത്തകാരണം, യസ്യ തത് വിദ്യുദാദി, സുവർണസ്യ തേജോരൂപത വിശേഷോധിത, അഗ്നേരപത്യം പ്രഥമം ഹിരണ്യമിതി ഹിരണ്യമിതി ശ്രുതേഹ. തേജോ ഗ്രന്ഥേ അവിന്ധനമിതി അവിന്ധനമിതി ആപഹ ജലം നിമിത്തകാരണം, യസ്യ തത് വിദ്യുദാദി.
അഭിന്ദനം ഇത്യസ്യ വിഷയ കിം അവഗതം? തേജഃ തേജസഃ വിഷയഃ ചതുർവിധം ഇതി ജാനീമഃ. തേജസഃ വിഷയഃ വിഷയശ്ചതുർവിധം. ഭൗമം തു ഭൂമൌ വിദ്യമാനം താദൃശ വഹ്നിഃ. ദ്വിതീയഃ അസ്തി അഭിന്ദനം ഇതി വഹ്നിഃ. അപ് ഇത്യുക്തേ ജലം, ഇന്ധനം ഇന്ധനം ഇതി ജാനീമഃ. ഇന്ധനം ഇത്യുക്തേ ഫ്യൂവൽ ഖലു. തരി അപ് ആപഹ അഥവാ ജലം നിമിത്തകാരണം യസ്യ നാമ, യദാ വൃഷ്ടികാലേ പശ്യാമഃ ഖലു, മേഘം ആകാശം പശ്യാമശ്ചേത് തത്ര തടിത് ഭവതി അഥവാ വിദ്യുത് ഭവതി. लैट्निङ्ग् तदपि अग्निः इति उच्यते. तादृश अग्नेः अथवा तादृश तेजसः निमित्तकारणं जलम् अस्ति, अथवा आप् अप् इत्युक्ते जलम्, आपः इति तत् नित्यबहुवचनशब्दः अस्ति आपः इति. तर्हि आपः निमित्तकारणं यस्य, नाम आपः इन्धनं भवति तादृश अग्नेः अथवा तादृश तेजसः, तदेव अभिन्दनम् इति द्वितीयविधं. दिव्यम् इत्यपि उच्यते. बुद्धम् अस्तु.
बुद्धम्
तृतीयमस्ति भुक्तस्य परिमाणहेतुः उदर्यम्. उदर्यम् इत्युक्ते उदरे जायते अथवा उदरे विद्यते. उदरम् इत्युक्ते अस्माकम् उदरं तु जानीमः, स्टमक्. तर्हि पचनस्य हेतुः यत्किमपि वयं खादामः तस्य पचनस्य हेतुः यः अग्निः अस्ति तद् उदर्यम्. आकरजं
सुवर्णाग्नि इति.
हा 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 सत्यं तादृश. हा सत्यं महोदय, तादृश अग्निः. हा तर्हि भुक्तस्य परिमाणहेतुः एकविध अग्निः. चतुर्थः अस्ति आकरजम्. आकरः इत्युक्ते मैन् अस्ति, मैन् अस्ति खलु, गोल्ड् मैन् अथवा यत्र ऐरन् अयः निष्पद्यते तादृशं मैन् अस्ति. तर्हि आकरजात् यः आगच्छति सुवर्णादि लोहाः, तस्मिन्नपि अग्निः अस्ति इति ते वदन्ति नैयायिकाः. तर्हि अन्ततो गत्वा सुवर्णस्य तेजरूपता साधिता, नाम सुवर्णं तैजसं द्रव्यम् इति ते वदन्ति नैयायिकाः. तर्हि तेषां तर्कः कः, तर्कस्य पङ्क्ति का इति अवगन्तुम् एकं करपत्रं विरचितमस्ति. तत् करपत्रं पठेम अधुना. पुरतः अस्ति वा करपत्रम्?
भगिनी एकनिमिषं, तस्मात् पूर्वं कृष्णताराग्रवर्ती वा जिह्वाग्रवर्ती, वर्ति इत्यस्य अर्थः किं भगिनी पुनः?
न्यायशास्त्रे वर्ति इत्यस्य अर्थः कः?
वर्तते इति.
आधेयः, तावदेव.
अस्तु. अग्र, अग्र किमर्थम्? अग्रे इति वा?
हा, तेषां तथा अस्ति मतं, नाम जिह्वा इति अवयवः अस्ति खलु, टङ्ग् इति पूर्णतया एकम् अवयव, एकः अवयवः, पार्ट् आफ् द बाडि, परन्तु तस्मिन् रसग्राहकशक्तिः जिह्वाग्रे वर्तते इति ते वदन्ति.
अस्तु अस्तु. तर्हि जिह्वा इत्येव इन्द्रियं खलु वा, तस्मिन् अस्ति वा इन्द्रियं?
तस्मिन् इन्द्रियम् अस्ति जिह्वा इति, जिह्वा इति शरीरावयवः, तस्मिन् इन्द्रियम् इति. तद्वदेव कृष्णताराग्रवर्ती इत्युक्ते कृष्णतारा इति तदस्ति खलु, तस्मिन् अग्रे वर्तते रूपग्राहकं चक्षुः. तद्वदेव त्वग् इति, हा त्वचा, त्वचः विषये तत्तु सर्वत्र अस्ति शरीरे इति ते वदन्ति. इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति, सर्वशरीरम् आश्रित्य तिष्ठति त्वक् इति. किन्तु हा पृथ्वी अपि च जल तेजसः इन्द्रियाणि किञ्चित् भिन्नानि इति.
धन्यवादः.
अस्तु अग्रे सरेम. सुवर्णम् अपि तैजसं द्रव्यम् इति किमर्थं ते वदन्ति इति अग्रिमविषयः करपत्रे अस्ति. रत्ना भगिनी आरब्धुमिच्छति वा?
अस्तु भगिनि. सुवर्णं तेजसं द्रव्यं, तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तेजसम् इति उक्तम्. कथनस्य आशयः एवं यत् सुवर्णे तेजः मुख्यांशः. पृथ्वी अपि अस्ति, यथा अस्माकं शरीरे पृथ्वी इति मुख्यांशः, किन्तु जलम्, अग्निः, वायुः, आकाशः इति द्रव्याणि अपि सन्ति. तथैव सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति इति नैयायिकानां मतम्. अत्र सुवर्णम् इत्यस्य वदनेन सर्वं लोहम् अन्तर्भूतम्, सुवर्णं, रजतम्, अयः, ताम्रम् इत्यादिकम्. अग्रे पठामि वा अथवा?
अग्रे एतत्तु स्पष्टमस्ति खलु?
आम्,
सुलभः एव स्यात्. सुवर्णं तेज, तैजसं किमर्थम् इति पश्येम. अधिकांशः तेजः इति, अस्माकं शरीरे पृथिव्याः अंशः 50% यावत् तर्हि महोदयेन उक्तमासीत् तत्र अन्ये अपि अंशाः सन्ति, वायुः अपि अस्ति, आकाशः अपि अस्ति, जलमपि अस्ति, तेजः अपि अस्ति, सार्धद्वादशप्रतिशतं यावत् इति नैयायिकाः वदन्ति इति. तत् कथं निर्णीतवन्तः न जाने, परन्तु अधिकांशः पृथिवी, तद्वदेव अधिकांशः सुवर्णे तेजः इति वदन्ति. अस्तु,
पूर्वपक्षः, पूर्वपक्षिणः किं वदन्ति इत्युक्ते सुवर्णं पार्थिवं द्रव्यं, पूर्वपक्षी प्रायः चार्वाकः, चार्वाकः पूर्वपक्षिणः अनुमानद्वयम् इत्युक्ते अत्र वादी प्रतिवादी तथाविध पूर्वपक्षिणः तेषां मतम् एकम् अस्ति, नैयायिकानां मतं भिन्नम् अस्ति इति चिन्तयामि. पूर्वपक्षिणः इत्युक्ते प्रायः चार्वाकः इति दत्तमस्ति. तेषां मतं किम् इत्युक्ते ते चिन्तयन्ति सुवर्णं पार्थिवद्रव्यम् इति. नैयायिकाः चिन्तयन्ति सुवर्णे अधिक तेज अंशः अस्ति इति, किन्तु पूर्वपक्षिणः पार्थिवद्रव्यम् इति चिन्तयन्ति. तेषाम् अनुमानद्वयम् अस्ति पूर्वपक्षिणां, सुवर्णं पार्थिवं पीतरूपवत्वात् हरिद्रावत्, यथा हरिद्रा अस्ति तथा सुवर्णस्य अपि पीतरूपम् अस्ति, अतः सुवर्णः पार्थिवद्रव्यम् इति ते चिन्तयन्ति पार्थिवम् इति. सुवर्णे पीत, पुनः लिखितमस्ति, सुवर्णे पीतरूपम् अस्ति, परन्तु पीतरूपं केवले पृथिव्यां भवति यथा हरिद्रा, हरिद्रे. तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम्, अन्यत् सर्वं रूपं पृथिव्याम् एव. अतः सुवर्णस्य पीतरूपवत्वात् सुवर्णं पृथिवी एव भवति यथा हरिद्रा. हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यं, तथैव पीतरूपवत्वात् सुवर्णमपि पार्थिवी पृथिवी भवेत् इति. अस्तु, किमर्थं ते सुवर्णं पृथिवी भवेत् इति प्रथम बिन्दुः अस्ति तेषां. तेजसि भास्वरशुक्लरूपम् अस्ति, जले अभास्वरशुक्लरूपम् अस्ति, किन्तु सुवर्णे पीतरूपम् अस्ति. यथा तेजसि भास्वरशुक्लरूपम् अस्ति तथा न, सुवर्णे पीतरूपम् अस्ति. यथा पृथिवीपदार्थः अस्ति हरिद्रा, तस्यामपि पीतरूपम् अस्ति, तथा सुवर्णे अपि अस्ति. अतः ते इत्युक्ते चारुवाकः चिन्तयन्ति सुवर्णः पृथ्वी पदार्थः इति, अधिकः पृथ्वी पदार्थः अस्ति तस्मिन् इति.
इति तेषां प्रथमम् अनुमानम्. अस्तु, पीतरूपत्वस्य आधारेण सुवर्णं पार्थिवम् इति ते वदन्ति. अपि च यथा भगिन्या उक्तं, भास्वरशुक्लरूपं तेजसि अस्ति, तादृशरूपं सुवर्णे न दृश्यते खलु, पीतरूपमेव दृश्यते इति तेषां प्रथमानुमानम्. अस्तु, द्वितीयमपि पठतु भगिनि.
अस्तु, सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत्. सुवर्णं पार्थिवं गुरुत्वात्, सुवर्णं उपरिष्टात् त्यजामः चेत् पतति, यतोहि तस्मिन् गुरुत्वम् अस्ति. पृथिव्यां जले च एव गुरुत्वं वर्तते, उभयत्र गुरुत्वम्, अन्यत्र कुत्रापि गुरुत्वं न लभ्यते. यथा तेजसि गुरुत्वं नास्ति, अग्नेः दीपस्य च प्रकाशः उपरि अपि गच्छति, अधः अपि गच्छति, यतोहि तेजसि गुरुत्वं नास्ति. परन्तु सुवर्णम् अधः एव पतति, अतः तस्मिन् गुरुत्वम्. गुरुत्वं पृथिव्यां जले एव च उक्तम्, सुवर्णं जलं न इति सर्वेषां सम्मतम्. आहत्य सुवर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन् गुरुत्वम् अस्ति, अतः पृथ्वी एव स्यात्. अस्तु, इदानीं द्वितीयबिन्दुः. प्रथमबिन्दुः आसीत् पीतरूपम् अस्ति, अतः प्रायः पृथ्वी अस्ति इति सुवर्णः. इदानीं द्वितीयबिन्दुः अस्ति सुवर्णे गुरुत्वम् अस्ति, यथा यदि उपरिष्टात् त्यजामः चेत् अधः पतति सुवर्णः, अतः तस्मिन् गुरुत्वम् अस्ति. यदि क्षम्यतां गुरुत्वं केवलं पृथिव्यां जले च भवति अन्यत्र कुत्रापि न भवति यथा किं दीपस्य प्रकाशः उपरि अपि गच्छति अधः अपि गच्छति प्रकाशे गुरुत्वं नास्ति तथा एव तेजसि अपि गुरुत्वं नास्ति केवल पृथ्वीपदार्थे जले च वर्तते सुवर्णं जलं नास्ति इति सर्वेषाम् अनुमतिः अस्ति तत्र तत्र कोऽपि भेदः नास्ति चिन्तने आहत्य ते चिन्तयन्ति सुवर्णः पृथिवीपदार्थः एव भवति इति
हा हा समीचीनं भगिनि तर्हि अनयोः आधारेण एकं पीतरूपवत्त्वम् इति एकम् अनुमानं तस्य आधारेण पृथिवी स्यात् इति अनुमानं कुर्वन्ति तदनन्तरं जलं तु नास्ति इति सर्वेषां सम्मतः परन्तु गुरुत्वम् अस्ति यथा भगिन्या उक्तं गुरुत्वं केवलं पृथिव्याम् अस्ति जले अस्ति जलम् इति एलिमिनेट् कृत्वा पृथिवी एव स्यात् इति ते वदन्ति तर्हि रत्ना भगिनी वदतु वायुः इति किमर्थं न अनुमानं कुर्वन्ति ते
वायौ गुरुत्वं नास्ति
गुरुत्वं नास्ति हा इति एकः विषयः अपि च वायौ रूपमस्ति वा
नास्ति स्पर्शः एव अस्ति रूपः नास्ति रूपं नास्ति वायौ
रूपरहितस्पर्शवान् वायुः नाम रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं तादृशलक्षणं सुवर्णस्य नास्ति तर्हि वायुः इति अपि निष्कासितं ततः अग्रे गत्वा किम् अस्ति आकाशः कालः दिश् दिक् आत्मा मनः एषां श्रेण्यां तु सुवर्णं न भवितुमेव अर्हति अपि च जलमपि नास्ति यतोहि अभास्वरशुक्लरूपं नास्ति सुवर्णस्य तेजसः यः भास्वरशुक्लरूपम् अस्ति तदपि न दृश्यते अपि च गुरुत्वम् अनुभूयते सुवर्णे इति कृत्वा गुरुत्वस्य आधारेण अपि च पीतरूपत्वस्य आधारेण पृथिवी स्यात् इति पूर्वपक्षी अनुमानं करोति पूर्वपक्षी इत्युक्ते नैयायिकाः न अपरः कश्चन तर्हि नैयायिकानाम् उत्तरं किम् अस्ति इति अग्रे पश्येम विद्याशङ्करमहोदय पठति वा
सिद्धान्तः सुवर्णे तेजः अपि अस्ति पृथिवी अपि अस्ति सिद्धान्ति नैयायिकः पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत् कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति यथा घृतम् अग्निसंयोगे सति घृतं द्रवः भवति घृते द्रवत्वम् उत्पद्यते तस्मिन् घृते पुनः इतोपि तेजसंयोगः क्रियते चेत् तद् द्रवत्वं नश्यति सिद्धान्तिनः उत्तरमस्ति सः वदति सुवर्णे तेजः अपि अस्ति पृथिवी अपि अस्ति सः नैयायिकदृश्यम् उपयुज्य वदति पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति इत्युक्ते निमित्तकारणेन पृथिव्यां द्रवत्वम् अपि भवितुम् अर्हति यथा घृतं घृतं सामान्यतः द्रवत्वं नास्ति किञ्चित् अग्निसंयोगेन तस्मिन् द्रवत्वम् आगच्छति अग्नौ स्थापयितुं शक्नुमः तथा एव अग्निसंयोगे घृतं द्रवं भवति पुनः अग्नेः दूरं नयामः चेत् तस्मिन् पुनः अद्रवत्वं द्रवत्वं नश्यति
सत्यम् इति नैमित्तिकद्रवत्वं हेतुः अस्ति चेत् द्रवत्वम् आगच्छति अत्र भेदः अस्ति द्रवत्वम् इत्युक्ते लिक्विडिटि द्रव्यम् इति नास्ति तत्र अवधानं भवतु द्रवत्वम् इति लिक्विडिटि अस्तु महोदय घृतस्य उदाहरणत्वेन अत्र दर्शितं यत् नैमित्तिकद्रवत्वम् अस्ति घृतम् इति पार्थिवपदार्थः तस्मिन् नैमित्तिकद्रवत्वम् अस्ति इति अग्रे
अधुना पात्रद्वयम् अस्ति बृहति पात्रे जलं संस्थापितं तस्मिन् जले पुनः लघुपात्रं स्थापितं यस्मिन् घृतम् अस्ति बृहत् पात्रस्य अधः अग्निः आरब्धः उष्णसंयोगेन घनं घृतं द्रवः भवति ततः अग्रे यावत् अग्निसंयोगं करोति घृते विद्यमानं द्रवत्वं न नश्यति. अग्निघृतयोः मध्ये यत् जलमस्ति तत् जलं घृतद्रवत्वनाशं प्रतिबध्नाति. अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम् इति उच्यते. पुनः एकः किम् एक्स्पेरिमेण्ट् इति अस्ति. पात्रद्वयम् अस्ति. बृहत्पात्रे जलं, तस्मिन् लघुपात्रे घृतम् अस्ति. बृहत्पात्रस्य अधः अग्निः आरम्भामहे. तथा उष्णसंयोगेन जलम् आदौ औष्ण्यं प्राप्नोति. तस्मात् लघुपात्रे यद् घृतम् अस्ति तस्मिन् द्रवत्वम् आगच्छति. यावत्पर्यन्तं बृहत्पात्रस्य जले अग्नि औष्ण्यम् अस्ति तावत् लघुपात्रस्य घृते द्रवत्वं तिष्ठति. घृतस्य यद् द्रवत्वम् अस्ति तस्य नाशं प्रति जलम् उष्णजलं प्रतिबन्धकम् इति उच्यते.
नाम इदानीं जलं जलयुक्तपात्रं निष्कासयतु, अस्तु. साक्षात् अग्निसंयोगः बहुकालपर्यन्तं भवति चेत् घृते तदा किं भवति?
द्रवत्वं नाशं न अस्ति, द्रवत्वम् अस्ति.
हा, द्रवत्वम् अस्ति. प्रथमम् आरभामहे चेत् यदा प्रथमतया अग्निसंयोगः आरभते तदा द्रवत्वं प्राप्नोति घृतम् इति सत्यं. परन्तु बहुकालपर्यन्तं यदि अग्निसंयोगः भवति तदा पाकशालायां यदा घृतं स्थापयित्वा अग्निचुल्यां स्थापयित्वा गच्छामश्चेत् कुत्रचित् तदा किं भवति घृतस्य स्थितिः?
वायो गच्छति.
हा, इति वेपरैस् भवति इति तु एकं. हा, अपि च तत्र घनमपि भवति, चार्ड् भवति खलु. हा, द्रवत्वस्य नाशः तु दूरं, परन्तु घृतस्य स्वभावः एव परिवर्तते किल. परन्तु एवं स्थापयामश्चेत् जले पात्रे जलं स्थापयित्वा तस्मिन् इतोपि एकं पात्रं स्थापयित्वा तस्मिन् घृतं स्थापयामश्चेत् तदा किं भवति?
तदा घृते द्रवत्वं तस्य नाशं न भवति.
घृतस्य द्रवत्वस्य नाशः न भवति इति कृत्वा जलं प्रतिबन्धकम् अस्ति अत्र इति वार्ता. अस्तु, अग्रिमपरिच्छेदं पठतु.
असति प्रतिबन्धके अत्यन्त अनलसंयोगे पार्थिवद्रवं द्रवत्वं नश्यति. घृतं यद् घनम् आसीत् अग्निसंयोगेन द्रवः जातः तदा अत्यन्त अनलसंयोगे पुनः घनम् आकारं प्राप्तं. घृतं ज्वलति तस्य च कृष्णरूपं भवति. परन्तु जलप्रतिबन्धके सति अत्यन्त अनलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति. जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्त अनलसंयोगे सति पार्थिवद्रवत्वं नश्यति. इदं पूर्वं भगिन्या उक्तं, जलं नास्ति चेत् प्रतिबन्धके नास्ति चेत् अत्यन्त अनलसंयोगे किं घृतं ज्वलं प्राप्नोति तथा च कृष्णरूपं घनं भवति, द्रवत्वं नश्यति. ततः तत् नाशं प्रति जलं प्रतिबन्धकम् अस्ति.
समीचीनं.
द्रवत्वनाशं प्रति
सत्यं प्रतिबन्धकं भवति इत्युक्ते बध्नाति. प्रतिबन्धकः इत्युक्ते निषेधयति. द्रवत्वनाशं जलं निषेधयति इति कृत्वा जलं प्रतिबन्धकम् अस्ति. तर्हि अत्र मुख्यवाक्यमस्ति असति प्रतिबन्धके अत्यन्तानलसंयोगे. तस्यां दशायां किं भवति महोदय?
प्रतिबन्धकः नास्ति चेत् अग्रे अग्रे अग्नेः संयोगः अस्ति चेत् पार्थिवद्रवत्वं नश्यति.
सत्यं, समीचीनम्. इति मुख्यविषयः. पार्थिवद्रवत्वस्य तादृशः स्वभावः अस्ति. नाम असति प्रतिबन्धके अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति इति तादृशस्वभावः पार्थिवद्रवत्वस्य. अधुना सुवर्णस्य कीदृशः स्वभावः इति अग्रे परिशीलयिष्यामः. नीता भगिनी पठितुमिच्छति वा अग्रे? नीता भगिनी अस्ति किम्?
अस्ति अस्ति भगिनि, मम पुरतः सङ्गणकं नास्ति, अतः केवलम् अहं शृणोमि भगिनि.
ओ अस्तु, समीचीनं. तर्हि अस्तु, वर्धिनी भगिनी पठति वा?
आं भगिनि. अस्ति प्रतिबन्धिके
तत् समाप्तं भगिनि, अग्रिमपरिच्छेदं पठतु.
अधुना सुवर्णम् इति वा? अधुना सुवर्णम् अनलसंयोगे सति सुवर्णं द्रवः भवति. अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति एव. सुवर्णं पुनः घनं न भवति. यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात्, तथापि सुवर्णस्य द्रवत्वं तिष्ठति. अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति, यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति. जलमपि न भवितुम् अर्हति सुवर्णे जलस्य अभावात्. तत्र सर्वेषाम् अङ्गीकारः. वैयादिषु
वैवादिषु
वैव्यादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुम् अर्हन्ति. केवलं तेजः अवशिष्यते. अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात्.
किञ्चित् बुद्धं वा भगिनि?
अनलसंयोगे सति सुवर्णं द्रवः भवति.
तत्तु सत्यं खलु? सुवर्णम् अनल इत्युक्ते अग्निः, संयोगेन द्रवत्वं भवति. पुनः अत्यन्तानलसंयोगे किं भवति?
अत्यन्तानलसंयोगे सति अपि द्रवत्वं तिष्ठति.
तिष्ठति, सुवर्णस्य द्रवत्वं न नश्यति खलु?
न नश्यति.
तत्र प्रतिबन्धकं घनं न भवति. पुनः प्रतिबन्धकम् आवश्यकं वा तत्र? जलम् इति प्रतिबन्धकम् आसीत् घृतस्य विषये, अत्र घृतस्य प्रसङ्गे तथा आसीत्, किन्तु अत्र तादृशजलम् आवश्यकं वा? प्रतिबन्धकरूपजलं प्रतिबन्धकरूपजलं वा?
प्रतिबन्धकं तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति.
एकनिमिष, मम प्रश्नः अस्ति, सुवर्णस्य द्रवत्वं सर्वदा भवति खलु, तद् रक्षयितुं सुवर्णस्य द्रवत्वस्य नाशः न भवतु इति चिन्तयित्वा यः कोऽपि जलं स्थापयति वा प्रतिबन्धकरूपेण? बालसुब्रह्मण्यमहोदय किं चिन्तयति?
जलमपि न भवितुम् अर्हति सुवर्णे, सुवर्णे जलस्य अभावात्.
एकनिमिष, बालसुब्रह्मण्यमहोदय.
अनलसंयोगे सति स्वर्णः द्रवः भवति, अत्यन्तसंयोगे अपि द्रवत्वं तिष्ठति, नाशं न भवति.
अधुना मम प्रश्नः अस्ति, प्रतिबन्धकः नास्ति चेदपि, प्रतिबन्धकम् इत्युक्ते जलम् अथवा अन्यत् किमपि अपरं पात्रं, तथा नास्ति चेदपि सुवर्णस्य द्रवत्वं तिष्ठति वा?
द्रवत्वं न तिष्ठति.
नाम घृतस्य विषये किम् आसीत्? घृतं पात्रे स्थापयित्वा, तद् पात्रं जलपात्रे स्थापयित्वा अग्निसंयोगः भवति चेत् द्रवत्वं तिष्ठति खलु? इति घृतस्य स्थितिः तादृशी. सुवर्णस्य स्थितिः तादृशी नास्ति खलु? साक्षात् अग्न्यां स्थापयामश्चेत् सुवर्णं द्रवं भवति इति सत्यं. पुनः प्रतिबन्धकः नास्ति चेदपि, वर्धिनी भगिनि, प्रतिबन्धक द्रवत्वं तिष्ठति खलु? हा, द्रवत्वं तिष्ठति सुवर्णे. हा, जलम् इति प्रतिबन्धकरूपेण नास्ति चेदपि द्रवत्वं तिष्ठति इति कृत्वा सुवर्णं पार्थिवद्रव्यं नास्ति. यतोहि पार्थिवद्रव्यस्थले वयं दृष्टवन्तः, असति प्रतिबन्धके अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति इति दृष्टवन्तः. अत्र तादृशी स्थितिः नास्ति. प्रतिबन्धके असति, अत्यन्तानलसंयोगे सत्यपि सुवर्णस्य द्रवत्वं न नश्यति इति कृत्वा तेषाम् अनुमानमस्ति, नैयायिकानां मतमस्ति यत् अस्तु सुवर्णं पार्थिवद्रव्यं नास्ति, यतोहि असति प्रतिबन्धके अत्यन्तानलसंयोगे द्रवत्वं न नश्यति इति कृत्वा पृथ्वी नास्ति, तस्मिन् तेजः स्यात्, तेजः एव प्रतिबन्धकरूपेण कार्यं कृत्वा जलत्वं न नाशयति इति अनुमानं कृत्वा अन्ततो गत्वा निर्णीयते यत् सुवर्णं तेजसं द्रव्यम् इति. अपि च एतदपि चर्चितवन्तः, वायु इत्यादिकं न भवितुम् अर्हति यतोहि रूपम् अस्ति सुवर्णे, वायुवादिषु रूपाभावः, केवलं तेजः एव भवितुम् अर्हति इति अस्ति.
द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात्.
हा, तेजः एव स्यात् इति कृत्वा सुवर्णं तैजसं द्रव्यम् इति उच्यते. तर्हि वयम् एतत् सर्वं चर्चितवन्तः, तदेव एकस्मिन् ग्रन्थे एकं दीर्घवाक्यमस्ति, एकदीर्घवाक्यरूपेण दीपिका ग्रन्थे अस्ति इति पठित्वा समापयामः. किञ्चित् वेङ्कटेशमहोदय पठितुमिच्छति वा अग्रिमवाक्यं, दीर्घवाक्यमस्ति यद्? अस्ति किं वेङ्कटेशमहोदय? अस्तु, बालसुब्रह्मण्यमहोदय भवानेव पठति.
एकनिमिषं भगिनि, अहम् अस्मि, क्षम्यताम्, अहं म्यूट् अस्मि, मध्ये आसम् इति पुनः पुनः गत्वा आगतवान् अतः कृतवान् इति. अस्तु, इदानीं पठामि. तत्र सुवर्णतैजसत्ववादः ततः आरभ्य किल दीपिका. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् न अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्वनाशादर्शनेन अस्ति असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभाववावधारणात् सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिककरणत्वेन पार्थिवत्वानुपपत्तेः तस्मात् पीतद्रव्यवत्वानाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वायव्यादिषु अनन्तर्भावात् तैजसत्वसिद्धिः तस्यौषणस्पर्शभावबास्वस्वररूपयोः उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः तस्मात् सुवर्णं तैजसमिति सिद्धम्
इति एतत् सर्वं यद् वयं चर्चितवन्तः
पठितवन्तः तदेव तत्र
एकेन वाक्येन. किञ्चित् प्रतिपादयितुं शक्नोति वा महोदय, किं किम् अस्ति तत्र इति? वयं यद् पठितवन्तः तदेव अस्ति भिन्नरीत्या.
तर्हि यदि सुवर्णं पीतत्वात् गुरुत्वात् हरिद्रावत्वात् पार्थिवं नानु
पार्थिवम् इति पूर्वपक्षी वदति, प्रथमवाक्यं पूर्वपक्षिणः
इति चेत् तर्हि तत्र तस्य प्रतिवादः, तर्हि तत्र अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थकृते द्रवत्वनाशदर्शनेन इति. तर्हि तत्र यथा घृतम् अस्ति तत्र अत्यन्त अनलसंयोग संयोगे सति तस्य द्रवत्वनाशदर्शनं भवति, परन्तु जलमध्यस्थितघृते द्रवत्वनाशदर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणाभावः अवधारणार्थम्.
नाम अत्यन्तानलसंयोगे सति घृतादौ किम् अस्ति द्रवत्वनाशदर्शनं भवति. हा, जलमध्यस्थघृते द्रवत्वनाश
प्रतिबन्धक तर्हि तत्र द्रवत्वनाशं प्रतिबन्धकः भवति. जलं यदा अस्ति तर्हि तत्र घृतादौ तत्र द्रवत्वनाश नाशं प्रतिबन्धकं रूपेण तत्र जलं प्रतिबन्धकः भवति, अतः जलत्व नाशं तदा न भवति इति.
इति सर्वं दृष्ट्वा पार्थिवद्रवत्वनाश अपि च अग्निसंयोगः अनयोः मध्ये कार्यकारणभावं
कल्पयति.
अग्रे सुवर्णस्य विषयः अग्रे आगच्छति, पठति वा?
सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमान द्रवत्वाधिकरणत्वेन अनुच्छिद्यमान द्रवत्वाधिकरणत्वेन इत्युक्ते तत्र नावगतं भगिनि, तस्य किञ्चित् सहायं.
सुवर्णस्य अत्यन्तानलसंयोगः भवति चेदपि अनुच्छिद्यमान द्रवत्वम् अनुच्छिद्यमानम् इत्युक्ते अनाश्यमानम् इति छिद्यते
छेदयितुं न शक्यते
तादृशद्रवत्वम् अस्ति. अनेन किं सिद्धम्?
अनेन तत् पार्थिवत्व अनुपत्तेः इत्युक्ते पार्थिवद्रव्यं नास्ति तादृशं तत्र. यतः पार्थिवद्रव्यम् इत्युक्ते तत्र जल अत्यन्त अनलसंयोगे सति तत्र द्रवत्वं नश्यति, परन्तु सुवर्णस्य तथा नास्ति इति कारणात् तस्य अनुपपत्तेः पार्थिवत्व
अनुपपत्तेः पञ्चमी विभक्ति पुनः. तस्मात् किं?
तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वायव्यादिषु अनन्तर्भावात् तैजसत्वसिद्धिः. तर्हि तत्र तस्मात् तत्र पीतद्रव्य
अस्मिन् वाक्ये पीतद्रव्यम् इत्युक्ते सुवर्णम्.
अस्तु, तत्र प्रतिबन्धकं तत्र किमपि नास्ति तथा सति अपि तत्र द्रवत्वं तिष्ठति इति. द्रवद्रव्यान्तरसिद्धौ यदा द्रवत्वनाशप्रतिबन्धकतया अपि तत्र नाशं न भवति.
इत्युक्ते पीतद्रव्यम् इति सुवर्णम्, पीतद्रव्ये सुवर्णे द्रवत्वनाशप्रतिबन्धकता अस्ति
तस्मिन्नेव. अत्र तर्हि तत्र जलं तादृशप्रतिबन्धकः नास्ति, परन्तु अन्यप्रतिबन्धकं तस्मिन्नेव अस्ति.
तस्मिन्नेव अस्ति द्रवद्रव्यान्तरसिद्धौ द्रवद्रव्यं त्रीणि अस्तु, पृथ्वी, जलं, तेजः इति त्रीणि द्रवद्रव्यम् अस्तु. द्रवद्रव्यान्तरसिद्धिः भवति किन्तु नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः, नाम जलम् इति नास्ति, यतोहि
जलं प्रतिबन्धकः भवति चेत् तत्र तस्य द्रवत्वनाशक नाशकं न भवति, अतः जलं तत्र भवितुं नार्हति प्रतिबन्धकरूपेण इति वा तत्र?
हा, सत्यं, द्रवद्रव्याणि त्रीणि.
तथा एव तत्र वायु रूपवत्तया वायुवादिषु अभावात् तदपि वायुः अपि तत्र रूपम् एव वायुः अपि नास्ति, यतः रूपस्पर्शवान् रूपरहितस्पर्शवान् वायुः इति कारणात् तत्र सः अपि प्रतिबन्धकः भवितुम् नार्हति. अतः तेजः एव तत्र तैजसत्वमेव तत्र सिद्धिः तत् द्रवद्रव्यान्तरसिद्धौ तत्र त्रिषु द्रवद्रव्येषु तत्र तेजसत्वसिद्धिः एव तत्र सुवर्णे अस्ति.
समीचीनं, समीचीनमस्ति, तथैव अस्ति. इतोपि एकः अंशः उत्थाप्यते तैः, तर्हि उष्णस्पर्शः बाष्पररूपः किमर्थं न दृश्यते इति. अग्रे वाक्यं पठतु महोदय.
तस्योष्णस्पर्श बाष्पस्वरूपयोः उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः.
तर्हि इतोपि एकः प्रश्नः उदेति, अस्तु भवतः यदुक्तं तत्सर्वं सत्यं, तैजसत्वमेव अस्ति सुवर्णस्य इति अनुमन्यते, परन्तु तेजसः गुणः कः? विलक्षणधर्मः अस्ति उष्णस्पर्शत्वम् अपि च भास्वररूपम्, उष्णस्पर्शत्वं विलक्षणगुणः, तस्मिन् भास्वररूपमपि अस्ति, तद् किमर्थं न दृश्यते सुवर्णे इति इतोपि एकः प्रश्नः. तस्य उत्तरमस्ति, तत्र पृथ्वी अस्ति उपष्टम्बकरूपेण, नाम पृथ्वी एतत् सर्वम् आच्छाद्य तिष्ठति, तदर्थं पृथिव्याः अंशः अस्ति इति कृत्वा भास्वरशुक्लरूपं न दृश्यते, तेजस्पर्शः अपि न अनुभूयते पृथिव्याः अंशात्, तदर्थम् उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः. पार्थिवरूप अथवा हरिद्रारूप अपि च पार्थिवस्पर्श अनुष्णाशीतस्पर्श आभ्याम् अनुपलब्धिः भवति तेजस्पर्शस्य भास्वररूपयोः इति कृत्वा अन्ततो गत्वा सुवर्णं तैजसम् इति सिद्धं भवति. अस्तु, अत्र कोऽपि प्रश्नः वा? उपष्टम्बकः इत्युक्ते नैकट्यम् इति महोदयेन एतेषु दिनेषु उक्तमासीत्, परन्तु तत्र ऊहां कर्तुं शक्नुमः यत् पार्थिव अंशाः सुवर्णे बहवः सन्ति इति, तस्य आधारेण उष्णस्पर्शः अथवा भास्वररूपः न अनुभूयते इति अस्ति. अस्तु, इतः अग्रे गत्वा रूपरहितस्पर्शवान् वायुः इत्यादिकं शब्दगुणकम् आकाशं स्वाध्यायरूपेण आसीत्, तत्र कोऽपि प्रश्नः अस्ति वा? नो चेत् अत्र विरमामः. अस्तु, धन्यवादः.
अस्तु भगिनि, धन्यवादः.